गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन् नोतिभिः सीदसादनम् प्रणोदेवी सरस्वती वाजिनीवती धीरामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत ईशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छा वदामसि यता नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचददि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्बयन् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रता सहस्रशो वैशागुम् हेडयीमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्त्रियोर्ज्याम् यास्य देहस्त इषव पराता भगवो वप अवदत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुखा शिवो न सुमनाभव वीर्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीदुष्टमहस्ते बभूवते धनुः दयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाददाय धृष्णवे उवाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिजाग्रिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्दोषाय कन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकावेभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यस्य वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमो मृगयुग्भ्य नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो तावद्भ्यश्च वो नमो नम सवाभ्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः चक्रभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमः रक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शेग्र्याय च शेभ्याय च नमः ओर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोऽज्ञाय च प्रतिसत्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्नते च नमो वर्मिणे च वरोधिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो वैष्णवे च प्रवशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः चोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः चष्प्याय च वेन्याय च नमः त्रिकट्याय च प्रवाह्याय च नमः हिरण्याय च प्रवत्याय च नमः केगुं शिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो योष्ट्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सौर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्पते दरिद्रन्मीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वेयाय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृदे क्षयद्वेराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अदि च देव रोह्यदा च नः शर्म यच्च द्विवराः सुहिश्रुतम् गर्त सदञ्जुवानम् मृगन्न भीममुपहद्वमुग्रम् मृडाचरित्रेणुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीडुस्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निदाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे निखिलित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अदे नीलग्रीवाश्रितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवा शितिकण्ठादिवगुं रुद्र उपस्मृताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकवर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पथाम् पथिरक्षय ऐलवृता यव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसस्य दिशो रुद्राविस्थिरे देशागुंसाश्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोद्गास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्रयम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्यायान्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसिरुद्रो वा विशान्तकः एनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्विश्वसुतन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुशनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे प्रियम् च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे यात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वाग्रिमे हन्मि कण्वेन जमदग्निना विश्वावसो ब्रह्मणा हतः कृमीनागुम् राजा अथो अप्येषागुस्तपतिर्हतः अतो माता तो पिता अतो शूरा अतो क्षुद्राः अतो कृष्णा अतो श्वेताः अतो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरा मद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् कन्फन्मसि ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्भक्तारमवतु अवतु माम् अवतु भक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः मात्रावलम् सामसन्तानः इत्युक्त क्षेक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथात् सगुंहिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामः सगुंहिता इत्याचक्षते अथाधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्यासन्धिः प्रवजनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अदराहनुपूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवक्षसेनान्नाग्नेन सुवर्गेण लोकेन यश्छन्दसा वृषभो विश्वरूपः छन्दोऽभ्यो निवृतात् सम्मभूव समेन्द्रो मेधया शृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणाचीरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा ప్రమాయంతు బ్రహ్మచారిణ స్వాహా, నమాయంతు బ్రహ్మచారిణ స్వాహా, శమాయంతు బ్రహ్మచారిణ స్వాహా, యశోజనేసాని స్వాహా, శ్రేయాన్వస్య శోషాని స్వాహా, తం త్వా భగ ప్రవిశాని స్వాహా, శమా భగ ప్రవిశ స్వాహా, తస్మిన్ సహస్రశాఖే నైభగాహం త్వయి వృజే స్వాహా, యథా పప్రవతాయంతి యథా మాసా అహర్జరం, ఏవం మా బ్రహ్మచారిణః దాతరాయంతు సర్వత స్వాహా, ప్రతివేశోసి ప్రమాభాహి ప్రమాపద్య స్వా, భూర్భువః సువరితి వా ఏతాస్తిస్రో వ్యాహృతయః, తాసామహస్మైతాం చతుర్థీం మహాజమస్య ప్రవేదయతే మహ ఇతి తద్బ్రహ్మా స ఆత్మా అంగాన్యన్యా దేవతాః, భూరితి వా అయం లోకః భువరిత్యంతరిక్షం సువరిత్యసౌ లోకః మహ ఇత్యాదిత్యః, ఆదిత్యేన వావ సర్వే లోకా మహీయంతే, భూరితి వా అగ్నిః భువ ఇతి వాయుః సువరిత్యాదిత్యః, మహ ఇతి చంద్రమాః చంద్రమసా వావ సర్వాణి జ్యోతిగుంషి మహీయంతే, భూరితి వారుచః భువ ఇతి సామాని సువరితి యజోగుంషి, మహ ఇతి బ్రహ్మా బ్రహ్మణా వావ సర్వే వేదా మహీయంతే, భూరితి వై ప్రాణః భువ ఇత్యపానః సువరితి వ్యానః, మహ ఇత్యన్నం అన్నేన వావ సర్వే ప్రాణా మహీయంతే, తావా ఏతాశ్చతస్రశ్చతుర్ధా చతస్రశ్చతస్రో వ్యాహృతయః, తాయో వేదా స వేద బ్రహ్మా సర్వే స్మై దేవా బలిమావహంతే, చ య ఏషోంతరహృదయ ఆకాశః తస్మిన్నయం పురుషో మనోమయః, అమృతో హిరణ్మయః అంతరేణ తాలుకే, య ఏష స్తన ఇవ వలంబతే చేంద్రయోనిః యత్రాసౌ కేశాంతో వివర్తతే, వ్యపోహ్యశీర్షకపాలే భూరిత్యగ్నౌ ప్రతిష్ఠతి, మువ ఇతి వాయౌ సువరిత్యాదిత్యే మహ ఇతి బ్రహ్మణి, ఆప్నోతి స్వారాజ్యం ఆప్నోతి మనసస్పతిం వాక్పతిశ్చక్షుష్పతిః శ్రోత్రపతిర్విజ్ఞానపతిః, ఏతత్తతో భవతి ఆకాశశరీరం బ్రహ్మా సత్యాత్మ ప్రాణారామం మన ఆనందం శాంతి సమృద్ధమమృతం, ఇది ప్రాచీన యోగ్యోపాస్వ పృథివ్యంతరిక్షం ద్యౌర్దిశో వాంతర దిశాః, అగ్నిర్వాయురాదిత్యశ్చంద్రమా నక్షత్రాణి ఆప ఓషధయో వనస్పతయ ఆకాశ ఆత్మా, ఇత్యధిభూతం అసాధ్యాత్మం ప్రాణో వ్యానోపాన ఉదాన సమానః, చక్షుశ్రోత్రం మనోవాక్త్వక్ చర్మ మాగుంసద్దుస్తావాస్థి భజ్జా, ఏతదధివిధాయ ఋషిరవోచత్ పాంతం వా ఇదగుం సర్వం, पाण्टे नैव पाण्डग्स्पृणोतीति ओमिति ब्रह्मा ओमिति दगुम् सर्वम् ओमित्येतदनुकृतिहस्मवा अप्यो श्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुं शोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्यु प्रतिगरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च नमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अरिधयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचारातीतरः तप इति तपो नित्य पौरुसृष्टिः स्वाध्याय प्रवचने एवेति न को मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिम् वृत्तम् गिरेरिव ऊर्ध्वपवित्रो वायिरिव स्वमृतमस्मि रविणगुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्याचार्यो अन्तेवासिनमनुशास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्त्वम् माव्यवच्छेत्से सत्यान प्रमदितव्यम् धर्मान प्रमदितव्यम् कुशलान प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् नैव पितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवज्ञानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकगुम् सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मत्रेयागुंसो ब्राह्मणाः तेषाम् त्वया सरेण प्रश्वसितव्यम् श्रद्धया धेयम् अश्रद्धया धेयम् श्रिया धेयम् ह्रिया धेयम् भ्रिया धेयम् संविदाधेयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् एतत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अथाभ्याख्यातेषु एतत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रश्चं वरुणः शन्नो भवत्पर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेत् तद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मात्मन्वदसृजत तदकामयत समात्मनापत्येयेति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुम् होत प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वा एतम् दशहूतगुम् सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवा आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् होत प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तम् वा एतम् सप्तहूतगुम् सन्तम् सप्तहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम् होत प्रत्यशृणोत् स षड्भूतो भवत् षड्भूतो हवैनामैषः तम् वा एतम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् होत प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैरामैषः तम् वा एतम् पञ्चहूतगुम् सन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् भूत प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैनामैषः तम् वा एतम् चतुर्भूतगुम् सन्तम् चतुर्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया हि वै देवाः तमब्रवीत् त्वम् वै मेनेष्ठगुम् होत प्रत्यश्रौषे त्वयैनाख्यातार इति तस्मान्नुहैनागुम् चतुर्होतार इत्याचक्षते तस्माचस्सो स पुत्राणागुम् हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् वेदा आत्मने नमः स्वस्ति प्रजाम् व्यपरिपालयन्ता या येन मार्गेण महीमहेशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।